ओम सर्वे वै देवा देवीम उपतस्तुः काशी त्वं महादेविति साब्रवीत।
अहम् ब्रह्मस्वरूपिणी मत्तः प्रकृति पुरुषात्मकं जगत् शून्यं च अशून्यं च अहम् आनंद अनानंदौ अहम् विज्ञान अविज्ञाने अहम् ब्रह्म अब्रह्मणि वेदितव्ये अहम् पंचभूतानि अपंचभूतानि अहम् अखिलं जगत् वेदोहम् अवेदोहम् विद्याहम् अविद्याहम् अजाहम् अनजाहम् अधश्चोर्ध्वं च तिर्यक्चाहम् अहम् रुद्रेभि वसुभिश्चरामि अहम् आदित्यैरुत विश्वदेवैः अहम् मित्रावरुणावुभौ बिभर्मि अहम् इन्द्राग्नी अहम् अश्विनावुभौ अहम् सोमं त्वष्टारं पूषणं भगं दधामि अहम् विष्णुमुरुक्रमं ब्रह्माणमुत प्रजापतिं दधामि अहम् दधामि द्रविणं हविष्मते सुप्रावे यजमानाय सुन्वते अहम् राष्ट्रीसंगमने वसूनां चिकितुषी प्रथमा यज्ञियानां अहम् सुवे पितरमस्य मूर्धन्मम योनिरप्स्वन्तः समुद्रे य एवं वेद स दैवीं संपदमाप्नोति।
ते देवा अब्रुवन्
नमो देव्यै महादेव्यै शिवायै सततं नमः नमः प्रकृत्यै भद्रायै नियता प्रणता स्मता तामाग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टां दुर्गां देवीं शरणं प्रपद्या महेसुरान्नाशयित्री ते नमः देवीं वाचमजनयन्त देवा तां विश्वरूपा पशवो वदन्ति सानो मन्द्रेशमुर्जं दुहाना धेनुर्वागस्मानुपसुष्टुतैतु
कालरात्रिं ब्रह्म स्तुतां वैष्णवीं स्कंदमातरं सरस्वती मदितिं दक्षदुहितरं नमामः पावनां शिवां महालक्ष्म्यै च विद्महे स सर्वशक्त्यै च धीमहि तन्नो देवी प्रचोदयात्। अदितेरजनिष्ट दक्षया दुहिता तव तां देवा अन्वजायन्त भद्रा अमृत बन्धव।
कामो योनि कमलावज्रपाणिर्गुहाः सा मातरेष्वा भ्रमिन्द्रः पुनर्गुहा सकला मायया च पुरुश्चैषा विश्वमातादिविद्यो।
एषात्मशक्ति एषा विश्वमोहिनी पाशाङ्कुशधनुर्बाणधरा एषा श्रीमहाविद्या। य एवं वेद स शोकं तरति। नमस्ते अस्तु भगवती मातरस्मान् पाहि सर्वतः। सैषाष्टौ वसवः सैषैकादशरुद्राः सैषा द्वादशादित्याः सैषा विश्वे देवः सोमपा असोमपाश्च सैषा यातु धाना असुरा रक्षांसि पिशाचा यक्षाः सिद्धाः सैषा सत्वरजस्तमांसि सैषा ब्रह्म विष्णुरुद्ररूपिणी सैषा प्रजापतिन्द्रमनवः सैषा ग्रहनक्षत्रज्योतिंषि कलाकाष्ठादिकालरूपिणी तामहं प्रणौमि नित्यम्।
पापापहारिणीं देवीं भुक्तिमुक्तिप्रदायिनीं अनन्तां विजयां शुद्धां शरण्यां शिवदां शिवां वियदीकारसंयुक्तं वीतिहोत्रसमन्वितम् अर्धेन्दुलसितं देव्या बीजं सर्वार्थसाधकम् एवमेकाक्षरं ब्रह्म यतयः शुद्धचेतसः ध्यायन्ति परमानन्द मया ज्ञानां पुराशयः वाङ्माया ब्रह्मसोऽस्तस्मात् षष्ठं वक्त्रसमन्वितम् सूर्यो वामश्रोत्रबिन्दु संयुक्तष्टातृतीयः कः नारायणेन सम्मिश्रो वायुश्चाधरयुक्ततः विच्चैनवाणकोर्णः स्यान्महदानन्ददायकः हृत्पुण्डरीकमध्यस्था प्रातः सूर्यसमप्रभा पाशांकुशधरां सौम्यां वरदाभयहस्तकां त्रिनेत्रां रक्तवसनां भक्तकामदुधां भजे नमामि त्वां महादेवीं महाभयविनाशिनीं महादुर्गप्रशमनीं महाकारुण्यरूपिणीं
यस्यः स्वरूपं ब्रह्मादयो न जानन्ति तस्माद् उच्यते अग्नेया यस्य अन्तो न लभ्यते तस्माद् उच्यते अनन्ता यस्य लक्ष्यं नोपलक्ष्यते तस्माद् उच्यते अलक्ष्या यस्य जननं नोपलभ्यते तस्माद् उच्यते अजा एकैव सर्वत्र वर्तते तस्मादुच्यते एका एकैव विश्वरूपिणी तस्मादुच्यते नैका अतः एवोच्यते अग्नेयानन्ता लक्ष्या जैका नैकेति
मन्त्राणां मातृका देवी शब्दानां ज्ञानरूपिणी ज्ञानानां चिन्मयातीता शून्यानां शून्यसाक्षिणी यस्य परतरं नास्ति सैषा दुर्गा प्रकीर्तिता तां दुर्गां दुर्गमां देवीं दुराचारविघातिनीं नमामि भवभीतोऽहं संसारार्णवतारिणीम्
इदम् अथर्वशीर्षं योधीते स पञ्चाथर्वशीर्षजपफलमाप्नोति इदम् अथर्वशीर्षम् अज्ञात्वा योर्चां स्थापयति शतलक्षं प्रजप्त्वापि सोर्चा सिद्धिं न विन्दति शतमष्टोत्तरं चास्य पुरश्चर्याविधिस्मृत दशवारं पठेद्यस्तु सद्यः पापैः प्रमुच्यते महादुर्गाणि तरति महादेव्यः प्रसादत सायमधियानो दिवसकृतं पापं नाशयति प्रातर्धियानो रात्रीकृतं पापं नाशयति सायं प्रातः प्रयुञ्जानो अपापो भवति निशीथे तुर्यसन्ध्यायां जप्त्वा वाक्सिद्धिर्भवति नूतनायां प्रतिमायां जप्त्वा देवता सानिध्यं भवति प्राणप्रतिष्ठायां जप्त्वा प्राणानां प्रतिष्ठा भवति भौमाश्विन्यां महादेवीसन्निधौ जप्त्वा महामृत्युं तरति स महामृत्युं तरति य एवं वेद इति उपनिषत्।